अथ तृतीयोऽध्याय सूत उवाच जगृहे पौरुषम् रूपम् भगवान् महदादिभिः सम्भूतम् षोडशकलम् आदौ लोके शिशिरीक्षया यस्याम् वशिशयानस्य योगनिद्राम् वितन्वतः नाभिरिदाम्बुजादासीत् ब्रह्मा विश्वसृजाम् पतिः यस्यावयवसंस्थाने कल्पितो लोकविस्तरः तद्वै भगवतो रूपम् विशुद्धम् सत्त्वमूर्जितम् पश्यन्तदो रूपमदभ्रचक्षुषः भव सहस्रपादोरुभुजाननाद्भुतम् सहस्रमूर्धश्रवणाक्षनासिकम् सहस्रमौल्यम् वरकुण्डलोल्लसत् एतन्नानावताराणाम् निधानम् वीदमव्ययम् यशांशांशेन सृज्यन्ते देवते नियम् नरादयः स एव प्रथमम् देवः कौमारम् सर्गमाश्रितः चचार दुश्चरम् ब्रह्मा ब्रह्मचर्यमखण्डितम् द्वितीयम् च भवायास्य रसातलगताम् महीम् उद्धरिष्यन्नुपादत्त योगेश सौकरम् वपुः द्वितीयम् च भवायास्य रसातलगताम् महीम् उद्धरिष्यन्नुपादत्त यज्ञेश सौकरम् वपुः तृतीयम् ऋषिसर्गम् च देवर्षित्वमुपेत्य स तन्त्रम् सत्त्वमाचष्ट नैष्कर्म्यम् कर्मणाम् यतः तुर्ये धर्मकला सर्गे नरनारायणावृषि त्वा भूत्वात्मोपशमुपेतमकरोत् दुश्चरम् तपः पञ्चम कपिलोऽस्य नाम सिद्धेश कालविप्लुतम् प्रोवाचासुरये साङ्ख्यम् तत्त्वग्रामविनिर्णयम् षष्ठे अत्रैरपत्यत्वम् वृत प्राप्तोऽनुसूयया आन्वीक्षिकिमलर्काय प्रह्लादादिभ्यूचिवान् ततः सप्तमे आकूत्य युरुचेर्यज्ञोऽभ्यब्जायत सेयामाद्यैः सुरगणैरपात् स्वायम्भुवान्तरम् अष्टमे मेरुदेव्याम् तु नाभिर्जात उरुक्रमः दर्शेन्वर्त्मधीराणाम् सर्वाश्रम नमस्कृतम् ऋषिभिर्याचितो भेदे नवमम् पार्थिवम् बभूः दुग्धे मामोषधीर्विप्रास्तेनायम् स उषत्तमः रूपम् च जगृहे मात्स्यम् चाक्षुषोदधि सम्प्लवे नाव्यारोप्य महीमय्यामपाद्वैव स्वतम् मनुः सुरासुराणामुदधिम् मत्नताम् मन्दराचलम् दद्रेकमठरूपेण पृष्ठ एकादशे विभुः धान्वन्तरम् द्वादशममम् त्रयोदशममेव च अपायत्सुरान्नन्यान् मोहिन्या मोहयन् स्त्रिया चतुर्दशम् नारसिंहम् बिभ्रद्येत्यन्द्रमूर्जितम् ददार करदैर्वक्षस्येरकाम् कटकृद्यथा पञ्चदशम् वामनकम् कृत्वा गादध्वरम् बलेः पदत्रयम् याचमानः प्रत्यादित्सुस्त्रिविष्टपम् अवतारे षोडशमे पश्यन् ब्रह्मध्रुवो नृपा त्रिसप्त कृत्वा कुपितो निक्षत्रामकरोन्महीम् ततः सप्तदशे जातः सत्यवत्याम् पराशरात् चक्रे वेदतरो शाखा दृष्ट्वा पुंसोऽल्पमेदसः नरदेवत्वमापन्न सुरकार्यचिकीर्षया समुद्रनिग्रहादीनि चक्रे वीर्यान्यतः परम् एकोनविंशे विंशतितमे वृष्णिषु प्राप्य जन्मनि रामकृष्णविति भुवो भगवान् हरद्भरम् ततः कलौ सम्प्रवृत्ते सम्मोहाय सुरद्विषाम् बुद्धो नाम्ना जनसुतः कीकटेषु भविष्यति अथासौ युगसन्ध्यायाम् दस्युप्रायेषु राजसु जनिता विष्णु यशसोः नाम्ना कल्किर्जगत्पतिः अवतारा यसङ्ख्येया हरे सत्त्वनिधेर्द्विजाः यथा विदासिनः कुल्याः सरस स्युः सहस्रशः ऋषयो मनवो देवाः मनुपुत्रा महोजसः कलाः सर्वे हरिरेव स प्रजापतयस्तथा एते चांस्कला पुंसः कृष्णस्तु भगवान् स्वयम् इन्दारि व्याकुलम् लोकम् मृडयन्ति युगे युगे जन्म गुह्यम् भगवतो यः एतत् प्रयतो नरः सायम् प्रातर्गृणन् भक्त्या दुःखग्रामाद्विमुच्यते एतद्रूपम् भगवतो यरूपस्य चिदात्मनः माया गुणैर्विरचितम् महदादिभिरात्मनि यथा नभसि मे गौघोरेणुर्वा पार्थिवो निले एवं दृष्टति दृश्यत्वम् आरोपितम् अबुद्धिभिः अत एवं यदव्यक्तम् अव्यूढ़ गुण व्यूहितम् अदृष्ट श्रुत वस्तुत्वात् स जीवो यत् पुनर्भव यत्रे मे सदसद्रूपे प्रतिषिद्धे स्वसंविदा अविद्यात्मनि कृते इति तद्ब्रह्म दर्शनम् यद्येषो परता देवी माया वैशारदी मतिः सम्पन्न एवेति विदुर्महिम्नि स्वे महीयते एवं जन्मानि कर्माणि यकर्तुरजनस्य च वर्णयन्ति स्म कवयो वेदगुह्यानि सहृत्पतेः स वा इदं विश्वममोघलीलः सृजत्यवत्यत्तिन सज्जतेऽस्मिन् भूतेषु चान्तर्हितात्मतन्त्र षाड्वर्गिकम् जिघ्रति षड्गुणेशः न चास्य कश्चित् निपुणेन धातुरवेति दन्तु कुमनीषूतिः नामानि रूपाणि मनोवचोभिः सन्तन्वतो नटचर्यामि वाग्यः स वेद धातुः पदवीम् परस्य दुरन्तवीर्यस्य रथाङ्गपाणेः सन्तवृत्त्या भजेत तत्पाद सरोजगन्धम् अथेह धन्या भगवन्त इत्थम् यद्वासुदेव खिरलोकनाथे कुर्वन्ति सर्वात्मकमात्मभावम् न यत्र भूय परिवर्त उग्रः इदम् भागवतम् नाम पुराणम् ब्रह्म संहितम् उत्तम श्लोक चरितम् चकार भगवान् ऋषिः निःश्लेषाय लोकस्य धन्यम् स्वस्तैनम् महत् तदिदम् ग्राहयामास सुतमात्मवताम् वरम् सर्ववेदेतिहासानाम् सारम् सारम् समुद्रितम् स तु संश्रावयामास महाराजम् परीक्षितम् प्रायोपविष्टम् गङ्गायाम् परीतम् परमहर्षभिः कृष्णे स्वधामोपगतवेः धर्मज्ञानादिभिः सह कलौ नष्टदृशामेष पुराणापुराणार्कोऽधुनोदितः तत्र कीर्तयतो विप्रा विप्रर्षेर्भूरि तेजसः अहम् चाद्यगमम् तत्र निविष्टस्तदनुग्रहात् सोऽहम् वैश्रावयिष्यामि यथाधीतम् यथा मतिः इति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् प्रथमस्कन्धे नैमिषेयोपाख्याने तृतीयोऽध्यायः।